तत्सवितुस्तद्देवतायाः वरेण्यभर्गो धीमहि ह प्रचोदयेद्वै धियो यो नः तं ब्रह्माणं ज्ञानसूर्यं भज भज दत्तं भज भज दत्तं भज भज दत्तं भज भज दत्तं प्राणे प्रसवात् यः प्रसिद्धः सवितेत्यस्य ब्रह्मतेजः शिष्यधियश्च प्रेरयेन्नः तङ्गायत्री मन्त्रसारम्
भज भज दत्तम् भज भज दत्तम् भज भज दत्तम् भज भज दत्तम्
गायत्रीयम् छन्द एव सविता देवः स्मर्यते च शिष्यान्धकारा मुकुलिताब्जा धीविका सदं गुरुवरेण्यं भज भज दत्तं
भज भज दत्तं भज भज दत्तं भज भज दत्तं
कर्ता भर्ता ह्येष हर्ता सर्वस्यास्य श्रूयते हि त्रिमूर्तिरूपं ब्रह्मचैकं ब्रह्माकारं ब्रह्मवाचं भज भज दत्तं
भज भज दत्तं भज भज दत्तं भज भज दत्तं
त्रिपदं छन्दः त्रिस्वरोक्तं त्रिकालवन्द्यं त्रिगुणसूत्रं त्रिवाहिनीनां संगमं वा त्रिमूर्तितत्त्वं यं व्यनक्ति भज भज दत्तं
भज भज दत्तं भज भज दत्तं भज भज दत्तं
ओंकारश्च त्रिविधवर्णः त्रिस्रो व्याहृत योऽपियं हि सम्बोधयन्ति सर्वमन्त्रो यमेव वक्ति त्रिगुणमेकं
भज भज दत्तं भज भज दत्तं भज भज दत्तं भज भज दत्तं
चत्वारोऽयं वेदशुनकाः गौरनुसरति च वेदधर्मः वीणाश्रवणं वाणीपतिं षोडशवर्षं ब्रह्मदेवं
भज भज दत्तं भज भज दत्तं भज भज दत्तं भज भज दत्तं
जगदारम्भं हंसवाहं तेजोवदनं मन्त्रमूलं गायत्रीशं सामगानं विद्यानिलयं वेदपाठं
भज भज दत्तं भज भज दत्तं भज भज दत्तं भज भज दत्तं
यज्ञाचरणं होमनिष्ठं कमण्डलुधरं दर्भपाणिम् अग्निज्वाला भासमानं प्रातः सञ्ज्ञा बालभानं
भज भज दत्तं भज भज दत्तं भज भज दत्तं भज भज दत्तं
चन्दनतिलके कुङ्कुमाङ्कं ब्रह्मतेजसा दीप्यमानं जगन्मोहन सुन्दराङ्गम् आशायधरं पण्डितेशं
भज भज दत्तं भज भज दत्तं भज भज दत्तं भज भज दत्तं
अत्रेः पुत्रं ब्रह्मदत्तम् अनसूयाम्बा प्रेमराशिम् अजनमेखलं ब्रह्मदण्डम् यज्ञोपवीता मक्षमालं
भज भज दत्तं भज भज दत्तं भज भज दत्तं भज भज दत्तं
स्वतनोरुद्यत् कमलगन्धैः त्रिभुवनानि ह्लादयन्तं ब्रह्ममुहूर्ते साधकानां प्रचोदयेत्ता धियो यो नः
भज भज दत्तम्
भज भज दत्तम्
भज भज दत्तम्
भज भज दत्तम्
सृष्टि क्रमवद पुरुष सूक्तम् त्रिस्वरबद्धम् पावनार्थम् ऋषिभिः पठितम् ब्रह्मकाले श्रुत्वा श्रुत्वा प्रीयमाणम्
भज भज दत्तम्
भज भज दत्तम्
भज भज दत्तम्
भज भज दत्तम्
त्रिमताचार्यै पक्षमानान् तत्तन्मतमय भाष्यवादान् श्रुत्वा सिद्धान्तार्धमन्त्यम् समन्वयमतम् वाचयन्तम्
भज भज दत्तम्
भज भज दत्तम्
भज भज दत्तम्
भज भज दत्तम्
वेदान्तानामान्तिमार्थम् वेदान्तार्थम् बोधयन्तम् ऋषिभिः परितो भाषमाणम् शास्त्रार्थेषु व्यञ्जितेषु
भज भज दत्तम्
भज भज दत्तम्
भज भज दत्तम्
भज भज दत्तम्
आयुधवर्जित पाणिपद्मम् वाचैवारिम् मारयन्तम् कर्मफलानि ललाटपत्रे लिखन्तमायो दायदानम्
भज भज दत्तम्
भज भज दत्तम्
भज भज दत्तम्
भज भज दत्तम्
आचार्येन्द्रम् वाक्प्रचारम् भुवि सञ्चारम् निर्विचारम् कलाभिचारम् सदाचारम् सुरपरिचारम् चित्तचोरम्
भज भज दत्तम्
भज भज दत्तम्
भज भज दत्तम्
भज भज दत्तम्
पद्मसम्भवम् पद्मपीठम् पद्मसुगन्धम् पद्मवर्णम् पद्मापुत्रम् पद्मनेत्रम् पद्मसुपाणिम् पद्मपादम्
भज भज दत्तम्
भज भज दत्तम्
भज भज दत्तम्
भज भज दत्तम् वीणापाणिः यस्य शिष्या वाणी गायति ज्ञानदेवी तं वागीशम् सामवाच चरशोणाधर मन्त्रपाठम्
भज भज दत्तम्
भज भज दत्तम्
भज भज दत्तम्
भज भज दत्तम् यत्सङ्कल्पः केवलम् हि सर्वम् विश्वम् रचितमेवम् आद्यम् देवम् प्रथममूर्तिम् आराधनीया मजमनादिम्
भज भज दत्तम्
भज भज दत्तम्
भज भज दत्तम्
भज भज दत्तम् ललाटरेखाम् कर्मबद्धाम् परिमार्ष्टुम् यः केवलो हि सर्वसमर्थो लेखकोऽयम् धातारम् तम् मूलमूलम्
भज भज दत्तम्
भज भज दत्तम्
भज भज दत्तम्
भज भज दत्तम् चतुराम्नायाम् चतुरवाच चतुरास्याब्जै रुद्गिरन्तम् कविम् कवीनाम् आदिकाव्यम् सर्वजगदिदम् विरचयन्तम्
भज भज दत्तम्
भज भज दत्तम्
भज भज दत्तम्
भज भज दत्तम् परम ब्रह्म ब्रह्म शब्दो यस्मिन्नेव प्रकृतिहेतौ पूजातीतम् परम पूज्यम् दिवसारम्भे पूजनीयम्
भज भज दत्तम्
भज भज दत्तम्
भज भज दत्तम्
भज भज दत्तम् गायत्र्याद्या यस्य भार्याः त्रिशक्तयस्ताः त्रिमुखपद्मम् देवपितॄणाम् पितरमेव पितामहाख्यम् ब्रह्मरूपम्
भज भज दत्तम्
भज भज दत्तम्
भज भज दत्तम्
भज भज दत्तम् श्रीदत्त ब्रह्म गायत्रीम् योगायेत् ब्रह्मकालिकीम् सब्रह्म तेजसा दीप्तो ज्ञानी ब्रह्मत्वमश्नुते शतायुर्दायमाप्नोति सर्वविद्याः प्रपद्यते సత్పుత్రం లభతే హోమాత్ ఐశ్వర్యం బ్రహ్మవీక్షితః భజ భజ దత్తం భజ భజ దత్తం భజ భజ దత్తం భజ భజ దత్తం